एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। नेपाली कांग्रेस दलेन सर्वकारस्य कार्याणि अतिरिक्तं प्रभावपूर्णानि विधातुं सर्वकारे दलस्योपस्थितिं सशक्तं विधातुं निर्णीतमस्ति। सीमप्रासादवर्तिनी नेपाली कांग्रेस दलस्य संसदीय दलस्य कार्यालये ह्यः उपविष्टेन दलस्य पदाधिकारिणां पूर्व पदाधिकारिणां दलस्य पक्षतः सर्वकारे प्रतिनिधित्वं कुर्वतां मन्त्रिणाञ्चोपवेशे नेतारः सर्वकारस्य कार्यभे तीव्रतां प्रदातुं सर्वकारे संलग्ने दलैस्सह समन्वयं विधाय अग्रेसरणीयम् इत्युक्तवन्तः। उपवेशे सत्तारूढयोः प्रमुख द्वयोदलयोः संयन्त्रेण विधीयमानानां कार्याणां सम्प्रत्येव क्रियान्वितानाम् अध्यादेशानाम् औचित्यस्य सर्वकारस्य कार्यस्य च विषयेष् गृहमन्त्रिणा रमेशलेखकेन संसदः कार्यस्य विषये दलस्य प्रमुख सचेतकपदेन श्यामघिमिरे इत्यनेन च ज्ञापितम् आसीत्। उपवेशानन्तरं दलस्य प्रवक्ता डॉ प्रकाश शरण महत संविधान संशोधनस्य विषये गभीरतया गृहकार्यं विधाय तस्मिन् विषये सर्वकारस्य संयन्त्रेण सहैव दलगत रूपेण धारणां निर्माय अग्रे गन्तुम् उपवेशेन निर्णीतमस्ति इति असूचयत्। तत्पूर्वम् उपवेशे संक्षेपेण सम्बोधनं विदधता दलसभापतिना शेरबहादुर देउवाभिदेन दलस्य पक्षतः सर्वकारे सहभागिनः मन्त्रिणः विद्यमानाः समस्याः दलस्योपवेशे प्रस्तुतव्या इत्युक्तम् आसीत्। मन्त्रीसहितानां दलस्य पदाधिकारिणाम् उपवेशे विमृश्यमानेषु विषयेषु अद्यतः दलस्य सांसदैस्सहितानाम् उपवेशे इतोऽपि गभीरतया विमृक्ष्यते इति नेपाली कांग्रेस दलेन ज्ञापितं वर्तते। पदाधिकारीसहितस्य नेपाली कांग्रेस संसदीय दलस्य उपवेशः अद्य श्वश्च वसति इति ज्ञापितमस्ति। दिनद्वयस्य विमर्शनात् प्रकाशितः निष्कर्षः परामर्शश्च दलस्य पक्षतः प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं प्रस्तोष्यते इति नेपाली कांग्रेस दलेन ज्ञापितं वर्तते। शीतलहर्यः सघनकुहरस्य च कारणेन तराई मधेश क्षेत्रस्य जनपदानां जनजीवनं प्रभावितं वर्तते। लुम्बिनी प्रदेशस्य कपिलवस्तु जनपदस्य सुदूरपश्चिम प्रदेशस्य कैलाली कञ्चनपुर जनपदयोश्च शीतलहर्याः सघनकुहरस्य च कारणेन जनजीवनं प्रभावितमस्ति। शीतलहर्याः कारणेन शैत्यात् बालबालिकाः वृद्धवृद्धाः विपन्न परिवाराश्च प्रभाविताः वर्तन्ते। शीतलहर्याः कुहरस्य च कारणेन कृषकै क्षेत्रे रोपितेषु शाकव्यञ्जनेषु विभिन्न शाकनाशकरोग संक्रमणं दृष्टमस्ति। शैत्येन सर्वाधिकम् आलुकव्यञ्जने क्षतिः प्रापिता अस्ति। अत्रान्तरे मधेशप्रदेशस्य राजधान्यां जनकपुरेण सहितेषु जनपदेषु ह्यः दिनत्रयस्य पश्चात् सूर्यस्य प्रकाशस्य दर्शनानन्तरं साधारणजनैः सन्तोषानुभवः कृतोऽस्ति। आपणादौ जनानां सम्वर्धश्च वर्धितो वर्तते। हुतात्म सप्ताहस्य चतुर्थे दिवसे अद्य हुतात्मना धर्मभक्त माथिमा इत्यनेन अमरत्वं लब्धे सिफलस्थाने विद्यमानायां तस्य प्रतिमायां श्रद्धाञ्जलिः समर्प्यते। हुतात्मनः धर्मभक्तस्य पिता आदिभक्त माथिमा माता चन्द्रकुमारी देवी च आस्ताम्। अस्य जन्म नवोत्तरैकोनविंशति शततमस्य ख्रीष्टवर्षस्य सेप्टेम्बर मासस्य चतुर्विंशे दिवसे अभूत्। सप्तनवत्यधिकैकोनविंशतितमे वैक्रमाब्दे विहितेन शुक्रराज गंगालाल धर्मभक्त दशरथचन्द प्रभृतिनां हुतात्मनां विपुल योगदानेन आत्मबलिदानेन च चतुरधिकशतवर्षाणि यावत् शासनं विदधतः राणा सर्वकारस्य समाप्तिं कृत्वा सप्ताधिकद्विसहस्रतमे विक्रमवर्षे नेपाले प्रजातन्त्रं संस्थापितम् आसीत्। प्रजातन्त्रस्य स्थापनायै स्वतन्त्रतायै च निरंकुशस्य राणा शासनस्य विरुद्धम् आन्दोलनं कृतमिति हेतुः राणा सर्वकारेण सप्तनवत्युत्तरैकोनविंशतितमस्य वैक्रमाब्दस्य माघमासस्य दशमदिवसे काष्ठमण्डपस्य टेकुस्थाने शुक्रराजशास्त्रिणे माघमासस्य त्रयोदश दिवसे काष्ठमण्डपस्यैव सिफलस्थाने धर्मभक्त माथिमा विधाय पञ्चदश दिवसे शोभा भगवती स्थाने दशरथचन्दाय गंगालाल श्रेष्ठाय च मृत्युदण्डः दत्तः आसीत्। अतः मुख्यतः तेषामेव चतुर्णां हुतात्मनां योगदानं संस्मृत्य नेपाले द्वादशोत्तर द्विसहस्रतम मावदात प्रतिवर्ष माघ मासस्य दशम दिवसात् षोडश दिवसं यावत् हुतात्म सप्ताह आयोज्यते। उपप्रधानार्थमन्त्री विष्णु पौडेलः भाषते वर्तमान सत्ता गठबन्धनम् आगामि निर्वाचनम् यावत् स्थास्यति। विराटनगरस्य विमानस्थले ह्यः संचारकर्मिभिः भाषमाणः अर्थमन्त्री पौडेलः वर्तमान सर्वकारः विशेष परिस्थितौ निर्मितोऽस्तीत्यतः अपर निर्वाचनस्य असम्पादनं यावत् सर्वकारोऽयं स्थास्यति इति समस्पष्टयत्। सर्वकारस्य संघटनस्य पश्चात् जनतायां महती आशा जागृता अस्तीत्यतः देशे राजनीतिक्याः अस्थिरतायाः सर्जकैः जनैः सर्वकार परिवर्तनस्य कुप्रचारः विहितोऽस्तीति परं तत्र कथं विधापि सत्यता नास्तीति समस्पष्टयत्। देशे प्रत्येकं क्षेत्रे आर्थिक सूचकांकः सन्तोषजनका अवस्थायाम् अस्तीत्यतः कतिषुचित् एव मासेषु देशेन आर्थिक समृद्धिः अधिगमिष्यति इति विश्वासं व्यक्तवान्। सर्वकारेण सुदीर्घकालात् निर्माण व्यवसायिनाम् अवरोध्य स्थापितं वित्तं तेभ्यः प्रदत्तम्, दुग्ध कृषकैरपि प्राप्तव्यं वित्तं शीघ्रं प्राप्स्यते इति विश्वासम् अदापयत्। नेकपा माओवादी दलस्य अध्यक्षः पुष्पकमलदहाल प्रचण्डः जनानां दुःखं ज्ञातुं दलं जनसमक्षं प्राप्तमस्ति इत्युक्तवान् वर्तते। प्रेस सेन्टर संस्थया ह्य दाङ जनपदस्य घुराई नगरे आयोजिते पत्रकार मेलन कार्यक्रमे अध्यक्षः प्रचण्डः सर्वकारेऽस्मिन् आगामि निर्वाचनं यावत् सत्तायां विद्यमाने माओवादी केन्द्रस्य लाभो भविष्यति इति अवदत्। असौ अगदत् आगामिनि निर्वाचने माओवादी दलेन एकाकिना निर्वाचने भागो ग्रहीष्यते। जनता समाजवादी जसपा दलस्य केन्द्रीय समितेः उपवेशः ह्यस्तनात् दिवसात् वीरगंज नगरे प्रारब्धोऽस्ति। उपवेशे राजनीतिक सांगठनिक सामयिक विषयैः दलस्य भाविन्यां रणनीतौ मधेश सम्बद्ध विषयेषु च विमृक्ष्यते इति दलस्य उपमहासचिवः पेयजल मन्त्री च प्रदीप यादवः असूचयत्। केन्द्रीयस्याध्यक्षस्य अशोक कुमार राय इत्यस्य अध्यक्षतायां प्रारब्ध उपवेशः अद्य पर्यन्तं चलतीति जसपा दलेन ज्ञापितं वर्तते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ गदति विकास निर्माण कर्मसु जनानुभूत्या सह सर्वकारः क्रियाशीलो वर्तते। लमजुङ जनपदे ह्य आयोजिते कार्यक्रमे मन्त्री गुरूङ देशं विकासस्य मार्गे अग्रे सारयितुं सर्वकारः प्रतिबद्धोऽस्ति इति अभाषत। मन्त्री गुरूङ संसदि बहुषु विधेयकेषु विचाराधीनेषु अध्यादेश मार्गानुसरणस्य विकल्पो नास्ति इति अगदत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डेय नेपालस्य जैविक विविधतायाः संरक्षणस्य आवश्यकतां प्रदर्शयति। षट्चत्वारिंशत्तमस्य पर्यटक प्रहरी दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री पाण्डे नेपाले पर्यटनस्य विकासाय प्रवर्धनाय च जैविकीं प्राकृतिकीं च विविधतां संरक्षितुं काठिन्यं वर्तते इति अवदत्। मन्त्री पाण्डे पर्यटन क्षेत्रम् एकाकीतया अग्रे गन्तुं न प्रभवतीत्यतः सर्वेषां समन्वयेन सहकारेण च पर्यटन क्षेत्रस्य प्रवर्धनस्य आवश्यकता अस्ति इति न्यश्चिनोत्। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई गदति शिक्षा क्षेत्रस्य विकासाय स्तरत्रयस्य सर्वकारेषु समन्वयस्य सहकार्यस्य च आवश्यकता वर्तते इति समाचारः।